ओम नमो भगवते वासुदेवाय। अथ तृतीयोऽध्यायः। मैत्रेय उवाच, सदा विद्विषतोरेवं कालो वैध्रियमाणयोः। जामातुः श्वशुरस्यापि सुमहानतिचक्रमे यदापि शिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना प्रजापतीनां सर्वेषामाधिपत्ये स्मयोऽभवत्। इष्ट्वा स वाजपेयेन ब्रह्मिष्ठानभिभूय च बृहस्पतिशवं नाम समारेभे क्रतूत्तमम्। तस्मिन् ब्रह्मर्षयः सर्वे देवर्षि पितृदेवताः आसन्। कृतस्वस्त्ययनास्तत्पत्न्यश्च सभर्तृकाः। तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम् सती दाक्षायणी देवी पितुर्यज्ञमहोत्सवम्। व्रजन्तीः सर्वतो दिग्भ्य उपदेववरस्त्रियः। विमानयानाः सप्रेष्ठा निष्ककण्ठी सुवाससः। दृष्ट्वा स्वनिलयाभ्यासे लोलाक्षीर्मृष्टकुण्डलाः पतिं भूतपतिं देव मौत्सुक्यादभ्यभाषत। सत्युवाच, प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सवः किल। वयं च तत्राभिसराम वामते यद्यर्थितामि विबुधा व्रजन्तिः। तस्मिन् भगिन्यो मम भर्तृभिः स्वकैर्ध्रुवं गमिष्यन्ति सुहृद्दृक्षवः। अहं च तस्मिन् भवताभिकामये सहोपनीतं परिबर्हमर्हितुम्। तत्र स्वश्रीर्मे ननु भर्तृसंमिता मातृस्वश्री क्लिन्नधियं च मातरम्। द्रक्ष्ये चिरोत्कण्ठमनामहर्षिभिरुन्नीयमानं च मृडाध्वरध्वजम्। त्वय्येतदाश्चर्यमजात्ममायया विनिर्मितं भाति गुणत्रयात्मकम्। तथाप्यहं योषिदतत्त्वविच्यते दीनादिदृक्षे भव मे भवक्षितिम्। पश्य प्रयान्तिरभवान्ययोषितोऽप्यलङ्कृता कान्तसखावरूथसः। यासां व्रजद्भिः श्रुतिकण्ठमण्डितं नभो विमानैः कलहंसपाण्डुभिः। कथं सुताया पितृगेहकौतुकं निशम्य देहः सुरवर्यनेङ्गते। अनाहुताप्यभियन्ति सौहृदं भर्तुर्गुरोर्देहकृतश्च केतनम्। तन्मे प्रसीदेदममर्त्यवाञ्छितं कर्तुं भवान् कारुणिको बतार्हति। त्वयात्मनोऽर्धेऽहमदभ्रचक्षुषा निरूपितामानुगृहाण याचितः। ऋषिरुवाच, एवं गिरित्रः प्रिययाभिभाषित प्रत्यभ्यधत्त प्रहसन् सुहृत्प्रियः। संस्मारितो मर्मभिदः कुवागिषून् यानाः को विश्वसृजां समक्षतः। श्रीभगवानुवाच, त्वयोदितं शोभनमेव शोभने अनाहुताप्यभियन्ति बन्धुषु। ते यद्यनुत्पादितदोषदृष्टयो बलीयसानात्म्यमदेन मन्युना। विद्यातपो वित्तवपूर्वयः कुलैः सतां गुणैः सद्भिरसत्तमेतरैः। स्मृतौ हतायां भृतमानदुर्दृशः स्तब्धान् पश्यन्ति हि धाम भूयसाम्। नैतादृशानां स्वजनव्यपेक्षया गृहान् प्रतीयादनवस्थितात्मनाम्। येभ्यागतान् वक्रधियाभिचक्षते आरोपितभ्रूभिरमर्षणाक्षिभिः। तथारिभिर्न व्यथते शिलीमुखैः शेतेर्दिताङ्गो हृदयेन दूयता। स्वानां यथा वक्रधियां दुरुक्तिभिर्दिवा निशन्तप्यति मर्मताडितः। व्यक्तं त्वमुत्कृष्टगतेः प्रजापतेः प्रियात्मजानामसि सुभ्रुसम्मता। अथाभिमानं न पितुः प्रपत्स्यसे मदाश्रयात् कः परितप्यते यतः। पापच्यमानेन हृदातुरेन्द्रियः समृद्धिभिः पूरुषबुद्धिसाक्षिणाम्। अकल्प एषामधिरोढुमञ्जसा पदं परं द्वेष्टि यथा सुराहरिम्। प्रत्युद्गमप्रशयनाभिवादनं विधीयते साधु मिथः सुमध्यमे। प्राज्ञै परस्मै पुरुषाय चेतसा गुहाशयायै वनदेहमानिने। सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृतः। सत्त्वे च तस्मिन् भगवान् वासुदेवो यथोक्सजो मे नमसा विधीयते। तत्ते निरीक्ष्यो न पितापि देहकृत् दक्षो मम द्विट् तदनुव्रताश्च ये। यो विश्वसृग्यज्ञगतं वरोरुमामनागसं दुर्वचसा करोत्तिरः। यदि व्रजिष्यस्यति हायमद्वचो भद्रं भवत्या न ततो भविष्यति। सम्भावितस्य स्वजनात् पराभवो यदा स सद्यो मरणाय कल्पते। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे उमारुद्रसंवादे तृतीयोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।